इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी श्वः पूर्वाह्ने एकादशवादने स्वीये मन की बात इति कार्यक्रमे देशवासिभिः साकं विचार विनिमयी करिष्यति। केन्द्रीय गृहमन्त्रिणः अमितशाहस्य अध्यक्षतायां छत्तीसगढ़स्य राजधान्यां रायपुरे अद्य वामपन्थी उग्रवादेन प्रभावितानां राज्यानां अन्ताराज्यीयोपवेशनं समनुष्ठितम्। युवविषयक क्रीडामन्त्री मनसुख मांडविया इत्यमुना राष्ट्रिय क्रीडा दिवसस्य समाचरणाय राष्ट्रव्यापी क्रीडा सहभागितायै आह्वानं विहितम्। भारतर्तु विज्ञान विभागेन छत्तीसगढ़ ओडिशा पश्चिम राजस्थान पूर्वीय मध्यप्रदेश गांगेय पश्चिम बंगालेषु श्वः यावत् अत्यधिक वृष्ट्याः संभावना प्रकटिता। अपि च भारतस्य अद्वितीय वल्लकः शिखर धवन इत्येषः क्रिकेट क्रीडायाः सर्वैरपि प्रारूपैः संन्यासं समुद्घोषितवान्। प्रधानमन्त्री नरेन्द्र मोदी श्वः पूर्वाह्ने एकादशवादने स्वीये मन की बात इति कार्यक्रमे देशवासिभिः साकं विचार विनिमयं करिष्यति। मन की बात इति मासिक कार्यक्रमस्य इदं त्रयोदशाधिकैकशतं संस्करणं भविता। अस्य कार्यक्रमस्य प्रसारणं आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः प्रसारयिष्यते। अयं कार्यक्रमः आकाशवाणी दूरदर्शन प्रधानमन्त्री कार्यालय सूचना प्रसारण मन्त्रालयानां यूट्यूब वाहिनीष्वपि द्रष्टुं शक्यते। प्रधानमन्त्रिणः सम्बोधनानन्तरं अनुक्षणं अयं कार्यक्रमः क्षेत्रीय भाषाष्वपि श्रोतुं शक्यते। क्षेत्रीय भाषासु अस्य पुनः प्रसारणं रात्रौ अष्टवादने भविता। केन्द्रीय गृहमन्त्रिणः अमितशाहस्य अध्यक्षतायां छत्तीसगढ़स्य राजधान्यां रायपुरे अद्य वामपन्थी उग्रवादेन प्रभावितानां राज्यानां अन्ताराज्यीयोपवेशनं समनुष्ठितम्। एतस्मिन् उपवेशने छत्तीसगढ़ं समेत्य वामपन्थी उग्रवाद प्रभावितानां राज्यानां मुख्यसचिवाः आरक्षिमहानिदेशकाश्च भागं स्वीकृतवन्तः। गृहमन्त्री सुरक्षा विकासोपक्रमयोः समीक्षां अत्रावसरे कृतवान्। युवविषयक क्रीडामन्त्री मनसुख मांडविया इत्यमुना अगस्तमासस्य एकोनविंशति दिनांके राष्ट्रिय क्रीडा दिवसस्य समाचरणाय राष्ट्रव्यापी क्रीडा सहभागितायै आह्वानं विहितम्। श्री मांडविया इत्यनेन भारतस्य स्वस्थ राष्ट्रत्वेन प्रतिष्ठापनार्थं प्रधानमन्त्रिणः नरेन्द्र मोदिनः स्वप्नः पुनरावर्तितः। भारतर्तु विज्ञान विभागेन छत्तीसगढ़ ओडिशा पश्चिम राजस्थान पूर्वीय मध्यप्रदेश गांगेय पश्चिम बंगालेषु श्वः यावत् अत्यधिक वृष्ट्याः संभावना प्रकटीकृता। तत्रैव मिजोरम त्रिपुरा गुजरात गोवा मध्य महाराष्ट्रेषु आगामिनं दिनद्वयं यावत् अतिवृष्टिः प्रकल्पिता। विभागेन इदमपि प्रख्यापितम् यत् हिमाचल प्रदेश उत्तराखण्ड पूर्वीय राजस्थान जम्मू कश्मीर लद्दाख गिलगित पंजाब उत्तरप्रदेश हरियाणा दिल्ली पश्चिम राजस्थानेष्वपि मध्यमस्तरीया वृष्टिः भविष्यति इति। प्रधानमन्त्री नरेन्द्र मोदी श्वः महाराष्ट्रस्य जलगांव नगरे राजस्थानस्य च जोधपुरं प्रति यास्यति। प्रातः समये श्रीमोदी लखपति दीदी सम्मेलने सहभागितां करिष्यति। असौ अत्रावसरे एकादशलक्षाधिकं लखपति दीदी इत्येताभ्यः प्रमाणपत्राणि वितरिष्यति। एताः साम्प्रतिके एव समये एनडीए प्रशासनस्य तृतीये कार्यकाले लखपतित्वेन समभाजिताः। सायं समये श्रीमोदी राजस्थानस्य जोधपुरं सम्प्राप्स्यति। तत्रासौ राजस्थानोच्चन्यायालयस्य 75वें समारोहस्य समापनसत्रे मुख्यातिथित्वेन भविष्यति। तत्र राजस्थानोच्चन्यायालयस्य संग्रहालयस्य उद्घाटनं विधास्यति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ newsonair इति चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। भारतस्य प्रथमं पुनः प्रयोज्य योग्यं हाइब्रिड इति प्रक्षेपास्त्रं रूमी वन इति चेन्नई नगरात् स्पेस जोन इंडिया इत्यनेन मार्टिन समूहस्य सहयोगेन प्रक्षेपितम्। 50 पिक उपग्रहैः त्रिभिः क्यूब उपग्रहैः युक्तमिदं यानं दूरभाष प्रक्षेपवक्रस्य उपयोगेन प्रक्षेपितम्। अनेन यानेन 35 किलोमीटर यावदाकाशे उड्डयनं कृतं, ततः केषुचिदेव क्षणेषु प्रयोगानन्तरं यानं भूमावतरत्। अभियानस्य नेतृत्वं कुर्वन् इसरो अन्तरिक्षकेन्द्रस्य पूर्वनिदेशकः डॉ एम अन्नादुरय इत्येषः अवदत् यत् अनेन प्रक्षेपास्त्रेण कार्यक्षमतां वर्धयितुं, परिचालनव्ययं न्यूनीकर्तुं च द्रवघन इन्धन प्राणोदकानां संयोगस्य उपयोगः कृतः अस्ति। आन्ध्रप्रदेशस्य तिरुपति जनपदस्य श्रीकालीहस्तीनगरस्य एकः प्रतिष्ठितः हस्तशिल्पकारः वेलायुधम श्रीनिवासुलु इत्येषः वैश्विकमञ्चे भारतस्य प्रतिनिधित्वाय चितो जातः। असौ सितम्बर मासस्य पञ्चमदिनांकतः नवमदिनांकपर्यन्तं पेरिस पैरा ओलम्पिक क्रीडायाः समापन समारोहे उत्कृष्ट कलमकारी इत्याख्याः कलायाः प्रदर्शनं करिष्यति। समग्र राष्ट्रात् केवलं 5 शिल्पकाराः एतस्मिन् अन्ताराष्ट्रिय कार्यक्रमे कला प्रस्तुतये चिताः। प्रतिष्ठितेन शिल्पगुरु पुरस्कारेण सम्मानितः वेलायुधम श्रीनिवासुलु इत्येषः आन्ध्रप्रदेशस्य एकमात्रं प्रतिनिधिः अस्ति। कोलकाता नगरे केन्द्रीयान्वेषण विभागेन आरजीकर चिकित्सकीय महाविद्यालयस्य चिकित्सालयस्य च पूर्व प्रधानाचार्यं संदीप घोषं समेत्य 7 जनानां पॉलीग्राफ इति परीक्षणं कृतम्। पॉलीग्राफ निरीक्षणाय आवश्यकी स्वीकृति सियालदः न्यायालयेन केन्द्रीयान्वेषण विभागे प्रदत्तः। अवधेयं वर्तते यत् संजय रायः ह्यः 14 दिनानां कारावास दण्डाय प्रेषितः। अत्रावधौ विशिष्ट निरीक्षणदलेन एसआईटी इत्यनेन कलकत्ता उच्च न्यायालयस्य आदेशानुसारि तत्सम्बद्धानि पत्राणि समर्पितानि। नेपालस्य तनाहुन जनपदे जातायां मार्ग दुर्घटनायां मृतकानां जनानां शवान् व्रणितान् जनाञ्च भारतं प्रत्यानेतुं कार्यनियन्त्रणाय युवकार्यक्रीडा राज्यमन्त्री रक्षा खड्से इत्येषा नेपालदेशस्य राजधानीं काठमाण्डू नगरं सम्प्राप्तवती। काठमाण्डुस्थितेन भारतीय दूतावासेन प्रख्यापितं यत् अस्यां दुर्घटनायां 27 भारतीया परलोकं प्राप्तवन्तः। एकस्मिन् सामाजिक सन्देश पटले खड्से इत्येषा अलिखत् यत् काठमाण्डू नगरस्य त्रिभुवन अन्ताराष्ट्रिय विमानपत्तन स्थानके भारतस्य राजदूतेन नवीन श्रीवास्तवेन नेपालदेशीयेन च विदेश मन्त्रालयस्य संयुक्त सचिवेन विघ्रू ढुंगाना इत्यनेन सह साहाय्याभियान विषये अग्रिम कार्याचरणे च चर्चा जाता। प्रधानमन्त्री नरेन्द्रमोदी पोलैण्ड युक्रेन देशयोः सफल यात्रानन्तरम् अद्य मध्याह्ने स्वदेशं प्रत्यागतवान्। यात्रावधौ प्रधानमन्त्रिणा वारसा नगरे पोलैण्ड देशस्य प्रधानमन्त्रिणा डोनाल्ड टस्क इत्यनेन सह वार्ता विहितवान्। उभौ नेतारौ सम्बन्धान् इतोऽपि प्रबलीकर्तुं पारस्परिक सहभागित्वस्य निर्णयः निर्णीतः। भारतस्य अद्वितीय वल्लकः शिखर धवन इत्येषः क्रिकेट क्रीडायाः सर्वैरपि प्रारूपैः संन्यासं समुद्घोषितवान्। 38 वर्षीयेण धवनेन सामाजिकान्तर्जालिक माध्यमेन सर्वेभ्यः परिवारजनेभ्यः समूह सदस्येभ्यः समर्थनप्रदानाय धन्यतावादः समाविष्कृतः। अनेन वल्लकेन भारतस्य कृते 37 टेस्ट क्रीडाः 67 वनडे क्रीडाः 68 विंशति प्रतिविंशति क्रीडाः क्रीडिताः। एषः एकदिवसीय प्रतिस्पर्धासु अत्युज्ज्वल प्रदर्शनार्थं मिस्टर आईसीसी पुरस्कारं सम्प्राप्तवान्। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः श्वः मध्याह्ने 11:30 भविष्यति इति वार्ताः।